इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। मस्कट नगरे भारत ओमान देशयोः मध्ये ऐतिहासिक व्यापक आर्थिक सहभागिता सन्धिषु हस्ताक्षराणि जातानि। प्रधानमंत्री नरेन्द्र मोदी ओमान देशस्य सर्वोच्च नागरिक सम्मानेन ऑर्डर ऑफ ओमान इत्यनेन सम्मानितः। लोकसभायां विकसित भारत जीरामजी विधेयकं 2025 स्वीकृतम्। केन्द्रीय मन्त्रिणा शिवराज सिंह चौहानेन उक्तं यत् नूतनेन विधेयकेन वृत्त्यावसरस्य प्रत्याभूतिः शततः 25 दिनानि यावत् वर्धितानि। अद्य नवदिल्ल्यां भारत नीदरलैंड देशौ स्वतन्त्रं मुक्तं नियमाधारितं च हिन्द प्रशान्त क्षेत्रं प्रति प्रतिबद्धतां पुनः दृढीकृतवन्तौ। वायु प्रदूषणं निवारणाय दिल्ली नगरे पेट्रोल पंप्स इत्यत्र वैध प्रदूषण नियंत्रण प्रमाणपत्रं विना वाहनानां कृते ईंधन प्रदानं न भविष्यति। अपि च अद्य दुबई नगरे भारतीय पुरुष महिला दले 25,000-तम वर्षस्य रोल बॉल विश्व चषक उपाधिं प्राप्तवन्तौ। अथ वार्ताः विस्तरेण। प्रधानमंत्री नरेन्द्र मोदी ओमान देशस्य सर्वोच्च नागरिक सम्मानेन ऑर्डर ऑफ ओमान इत्यनेन सम्मानितः। मस्कट नगरे भारत ओमान देशयोः मध्ये ऐतिहासिक व्यापक आर्थिक सहभागिता सन्धिपत्रेषु हस्ताक्षराणि जातानि। श्रीमोदी अवदत् यत् भारते विविधता एव तस्य संस्कृतेः दृढः आधारः अस्ति, तथा च भारतीयानां कृते प्रतिदिनं नूतन वर्णम् आनयति। प्रत्येकः ऋतुः नूतनः उत्सवः भवति, प्रत्येकः परम्परा नवाचारेण आगच्छति। प्रधानमन्त्री स्वस्य ओमान देशस्य यात्रायाः द्वितीये दिने मस्कट नगरे मैत्री पर्व इत्येतस्मिन् कार्यक्रमे भारतीय समुदायं छात्रान् च सम्बोधयनासीत्। प्रधानमन्त्री अवदत् यत् भारतीयाः यत्र तत्र गच्छन्ति, यत्र तत्र निवसन्ति, ते विविधतायाः सम्मानं कुर्वन्ति। सः अवदत् यत् भारतीय प्रवासिनः सह अस्तित्वस्य सहकारस्य च सजीवोदाहरणं सन्ति।
भारत में हमारी डाइवर्सिटी हमारी संस्कृति का मजबूत आधार है। हमारे लिए हर दिन एक नया रंग लेकर के आता है, हर मौसम एक नया उत्सव बन जाता है, हर परंपरा एक नई सोच के साथ आती है। और यही कारण है कि हम भारतीय कहीं भी जाए, कहीं भी रहे, हम डायवर्सिटी का सम्मान करते हैं।
मैत्री पर्व इति कार्यक्रमः ओमान देशे भारतीय शिक्षा व्यवस्थायाः 50 वर्षाणां समापन उत्सवम् आचरति। सः अवदत् यत् मैत्री पर्व द्वयोः देशयोः मध्ये मित्रता, तेषां संयुक्तस्य इतिहासस्य, समृद्धस्य च भविष्यस्य उत्सवः अस्ति। अद्य प्रातःकाले प्रधानमन्त्री मस्कट नगरे भारत ओमान व्यापार शिखर सम्मेलनं सम्बोधितवान्, यत्र उभयोः देशयोः व्यापार प्रमुखाः उपस्थिताः आसन्। सः अवदत् यत् शिखर सम्मेलनम् उभयोः देशयोः मध्ये द्वैपाक्षिक सम्बन्धेषु नूतनां दिशां गतिं च प्रदातुं शक्नोति। भारत ओमान व्यापार शिखर सम्मेलनं सम्बोधयन् प्रधानमन्त्री उक्तवान् यत् ऋतोः परिवर्तनं भवितुं शक्नोति, परञ्च भारत ओमान देशयोः मित्रता कालान्तरेण दृढतया वर्धिष्यति। अद्य लोकसभायां विकसित भारत वृत्त्यावसर प्रत्याभूतिः तथा आजीविका मिशन ग्रामीण विकसित भारत जीरामजी 2025 इति विधेयकं स्वीकृतम्। एतद् विधेयकं 20 प्राचीनस्य महात्मा गांधी राष्ट्रिय ग्रामीण रोजगार प्रत्याभूति 75 अधिनियमस्य स्थाने भविष्यति। 47,000 विकसित भारत इत्यस्य राष्ट्रिय दृष्टिकोणेन सह संरेखितस्य ग्रामीण विकासस्य संरचनायाः स्थापनायै विधेयकं प्रयुञ्जते। अस्य विधेयकस्यान्तर्गतं प्रत्येकस्मिन् ग्रामीण परिवाराय यस्य वयस्काः सदस्याः सकुशल शारीरिक कार्यं कर्तुं स्वेच्छया इच्छन्ति वित्तेभ्यः प्रत्येकस्मिन् वित्तीय वर्षे 25,100 दिवसानां वेतनवृत्त्यावसरस्य वैधानिक प्रत्याभूतिः प्रदीयते। विधेयकस्य विषये चर्चायाः प्रत्युत्तरे केन्द्रीय ग्रामीण विकास मंत्री शिवराज सिंह चौहानः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे मनरेगा योजना समुचित प्रभाविरूपेण च कार्यान्विता अस्ति। मनरेगा इत्यस्यान्तर्गतं यूपीए सर्वकारेण केवलं 13,000,000,000 रूप्यकाणि व्ययः कृतः। तत्रैव नरेन्द्र मोदी सर्वकारे 53,000,000,000 रूप्यकाणि व्ययः अभवत्।
हम पैसा बचाना नहीं चाहते, हम रोजगार देना चाहते हैं, गांव को विकसित बनाना चाहते हैं। इसलिए इसी साल बजट में प्रस्तावित है 1,51,282 करोड़ रुपया। और ये रुपया कहाँ जाएगा? ये मजदूरों को मजदूरी के लिए भी जाएगा, ये गांव के विकास के लिए भी जाएगा। अकेले भारत सरकार 95,600 करोड़ रुपया खर्चा करेगी।
प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। नीदरलैंड देशस्य विदेश मंत्री डेविड वैन वील इत्येषः अद्य नवदिल्ल्याः साउथ ब्लॉक इत्यत्र रक्षामंत्रिणा राजनाथ सिंहेन सह मिलितवान्। उभौ भारत नीदरलैंड द्वैपाक्षिक संबंधान इतोपि सुदृढं विविधीकरणं च कर्तुं संधिपत्राणां आदान प्रदानं कृतवन्तौ। अद्य नवदिल्ल्यां भारत नीदरलैंड देशौ स्वतंत्रं मुक्तं नियमाधारितं च हिंद प्रशांत क्षेत्रं प्रति प्रतिबद्धतां पुनः दृढीकृतवन्तौ। राष्ट्रीय राजधान्यां स्वस्य एकदिवसीय यात्रायां सः पश्चात् विदेशमन्त्रिणा डॉ एस जयशंकरेण सह अपि मिलिष्यति इति अपेक्षा अस्ति। रक्षामंत्री राजनाथ सिंहः अद्य दृढतया उक्तवान् यत् ऑपरेशन सिंदूर अभियानेन भारतस्य उत्कृष्ट प्रभावं अल्पकालिक प्रचालन क्षमतां प्रदर्शितम्। नवदिल्ल्यां वायुसेनायाः कमांडर्स सम्मेलनं संबोधयन् मंत्रिणा ऑपरेशन सिंदूर इत्यस्याभियानस्य समये प्रभाविरूपेण प्रयुक्तस्य भारतस्य वायु रक्षा व्यवस्थायाः उपकरणानां च प्रदर्शनस्य प्रशंसा कृता। श्री सिंहः भविष्यस्य प्रत्येकस्यां परिस्थित्यां अभियानेन शिक्षितुम् उक्तवान्। सः भारतीय वायुसेनायाः शौर्यस्य वेगस्य यथार्थतायाः च प्रशंसाम् अकरोत्। दिल्ल्याः मंत्री प्रवेश साहिब सिंहः अद्य पूर्वतनस्य आम आदमी पार्टीति सर्वकारस्य तथा पूर्व मुख्यमंत्रिणः अरविंद केजरीवालस्य उपरि गत 11 वर्षेषु राष्ट्रीय राजधान्यां वर्धमानस्य वायु प्रदूषणस्य स्तरस्य न्यूनीकरणे किमपि न कृतम् इति आरोपितवान्। नवदिल्ल्यां वार्ताहर सम्मेलनं संबोधयन् सः आम आदमी दलं प्रदूषण नियन्त्रणाय किमपि कर्तुम् असमर्थः अस्तीति आरोपितवान्। अद्यारभ्य सम्पूर्णे दिल्लीनगरे पेट्रोल पम्प्स इत्यत्र पीयूसी इति वैध प्रदूषण नियन्त्रण प्रमाणपत्रं विना वाहनानां कृते ईंधनस्य वितरणं न भविष्यति। पीयूसी इत्यस्य नियमस्य अनुपालनस्य च निरीक्षणं कैमराधारित प्रणाल्या प्रचलति। बैडमिंटन क्रीडायां सात्विक साईराज रंकी रेड्डी चिराग शेट्टी इत्येतयोः भारतीय पुरुष युगलम् अद्य सायं चीन देशस्य हांगशो नगरे BWF वर्ल्ड टूर फाइनल्स इत्यस्य उपांत्य चक्रीय द्वंद्वे स्थानं सुनिश्चेतुम् इंडोनेशिया देशस्य फजल अल्फियान मोहम्मद सोहिबुल फ्रीकी इत्येतयोः युगलम् सम्मुखीकरिष्यति। अद्य दुबई नगरे भारतीय पुरुष महिला दले 25,000,000 वर्षस्य रोल बॉल विश्व चषक उपाधिं विजितवन्तौ इति वार्ताः।